ॐ आदित्याय विद्महे मार्तण्डाय धीमहि तन्नः सूर्यः प्रचोदयात्। ॐ आदित्याय विद्महे मार्तण्डाय धीमहि तन्नः सूर्यः प्रचोदयात्। ॐ आदित्याय विद्महे मार्तण्डाय धीमहि तन्नः सूर्यः प्रचोदयात्।
ॐ जगत्प्राणाय विद्महे ध्वजहस्ताय धीमहि तन्नो वायुः प्रचोदयात्। ॐ जगत्प्राणाय विद्महे ध्वजहस्ताय धीमहि तन्नो वायुः प्रचोदयात्।
जलबिम्बाय विद्महे नीलपुरुषाय धीमहि तन्नो वरुणः प्रचोदयात्। ॐ जलबिम्बाय विद्महे नीलपुरुषाय धीमहि तन्नो वरुणः प्रचोदयात्। ॐ जलबिम्बाय विद्महे नीलपुरुषाय धीमहि तन्नो वरुणः प्रचोदयात्।
ॐ क्षीरपुत्राय विद्महे अमृततत्त्वाय धीमहि तन्नो चन्द्रः प्रचोदयात्। ॐ क्षीरपुत्राय विद्महे अमृततत्त्वाय धीमहि तन्नो चन्द्रः प्रचोदयात्। ॐ क्षीरपुत्राय विद्महे अमृततत्त्वाय धीमहि तन्नो चन्द्रः प्रचोदयात्।
धत्राय धीमहि तन्नो भूमिः प्रचोदयात्। ॐ वसुन्धराय विद्महे भूताधत्राय धीमहि तन्नो भूमिः प्रचोदयात्। ॐ वसुन्धराय विद्महे भूताधत्राय धीमहि तन्नो भूमि प्रचोदयात्।
श्रीगुरुभ्यो नमः हरिः ॐ अग्निर्नः पातु कृत्तिकाः नक्षत्रम् देवमिन्द्रियम् इदमासाम् विचक्षणम् कविरासञ्जुहोतन यस्य भान्ति रश्मयो यस्य केतवः यस्येमा विश्वा भुवनानि सर्वा सकृत्तिकाभिरभिसंवसानः अग्निर्नो देवः सुविते दधातु प्रजापते रोहिणी वेतुपत्नी विश्वरूपा बृहती चित्रभानुः सा नो यज्ञस्य सुविते दधातु यथा जीवेम शरदः सवीराः रोहिणी देव्युदगात् पुरस्तात् विश्वारूपाणि प्रतिमोदमाना प्रजापतिगुम् हविषा वर्धयन्ति प्रिया देवानामुपयातु यज्ञम् सोमो राजा मृगशीर्षेण आगन्ने शिवम् नक्षत्रम् प्रियमस्य धाम आप्यायमानो बहुधा जनेषु रेतः प्रजायजमाने दधातु यत्ते नक्षत्रम् मृगशीर्षमस्ति प्रियगुम् राजन् प्रियतमम् प्रियाणा तस्मै ते सोमहविषा विधेम शन्नयेधि द्विपते सञ्चतुष्पदे आद्रया रुद्रः प्रथमानयेति श्रेष्ठो देवानाम् पदिरघ्नियाना नक्षत्रमस्य हविषा विधेम मानः प्रजागुम्रीरिषन्मोत वीरान् हेति रुद्रस्य परिणो वृणक्तु आर्द्रा नक्षत्रम् जुषतागुम् हविर्नः प्रमुञ्चमानौ दुरितानि विश्वा अपाघशगुम् सन्नुदतामरातिम् पुनर्नो देव्यदिति स्पृणोतु पुनर्वसु नः पुनरेता यज्ञम् पुनर्नो देवा अभियन्तु सर्वे पुनः पुनर्वो हविषा यजामः एवान देव्यदितिरनर्वा विश्वस्य भर्त्री जगतः प्रतिष्ठा पुनर्वसु हविषा वर्धयन्ति प्रियम् देवानामप्येतुपाथः बृहस्पतिः प्रथमम् जायमानः तिष्ठन्नक्षत्रमभिसम्बभूव श्रेष्ठो देवानाम् पृतनासु जिष्णुः दिशो नु सर्वा अभयम् नो अस्तु तिष्यः पुरस्तादुतमध्यतो नः बृहस्पतिर्नः परिपातु पश्चात् बाधेतान्वेषो अभयम् कृणुताम् सुवीर्यस्य पतयस्याम इदगुम् सर्पेभ्यो हविरस्तु जुष्टम् आश्रेषा येषामनुयन्ति चेतः ये अन्तरिक्षम् पृथिवीम् क्षियन्ति तेन सर्पासो हवमागमिष्ठाः ये रोचने सूर्यस्यापि सर्पाः ये दिवम् देवीमनुसञ्चरन्ति येषामाश्रेषा अनुयन्ति कामम् तेभ्यः सर्पेभ्यो मधुमज्जुहोमि उपहूताः पितरो ये मघासु मनोजवसः सुकृतः सुकृत्याः ते नो नक्षत्रे हवमागमिष्ठाः स्वधाभिर्यज्ञम् प्रयतम् दुषन्ताम् ये अग्निदग्धा येनग्निदग्धाः ये मुल्लोकम् पितरः क्षियन्ति यागिश्च विद्मयागुम् उत न प्रभिद्म मघासु यज्ञगुम् सुकृतम् जुषन्ताम् गवाम् पतिः फल्गुनी नामसि त्वम् तदर्यमन्वरुणमित्रचारु तन्त्वा वयगुंसनिता रघुंसनीनाम् जीवा जीवन्तमुपसंविशेम येनेमा विश्वभुवनानि सञ्जिता यस्य देवा अनुसंयन्ति चेतः अर्यमा राजा जरस्तु विश्वान् फल्गुनीनामृषभोरोरवीति श्रेष्ठो देवानाम् भगवो भगासि तत्त्वा विदुः फल्गुनीस्तस्य वित्तात् अस्मभ्यम् क्षत्रमजरघुम् सुवीर्यम् गोमदश्ववदुपसन्नु देह भगो हदाता भग इत्प्रदाता भगो देवीः फल्गुनीराविवेश भगस्येत्तम् प्रसवङ्गमेम यत्र देवैः सधमादम् मदेम आयातु देवः सवितोपयातु हिरण्ययेन सुवृता रथेन वहनहस्तगुम् सुभगम् विद्मनापसम् प्रयच्छन्तम् पपुरिम् पुण्यमच्छ हस्तः प्रयच्छत्वमृतम् वसीयः दक्षिणेन प्रतिगृह्णीमयेन ते धातारमद्य सविता विधेय यो नो हस्ताय प्रसुवाति यज्ञम् त्वष्टा नक्षत्रमभ्येति चित्राम् सुभगुम् स संयुवतिगुम् रोचमानाम् निवेशयन्नमृतान्मर्त्यागुश्च रूपाणि पिगुंसन् भुवनानि विश्वा तन्नस्त्वष्टा तदुचित्रा विचष्टाम् तन्नक्षत्रम् भूरिदा अस्तु मह्यम् तन्नः प्रजाम् वीरवती गुंसनोतु गोभिर्नो अश्वैः समनक्तु यज्ञम् वायुर्नक्षत्रमभ्येदि निष्ट्या यज्ञशृङ्गो वृषभोरोरुवाणः समीरयन् भुवनामातरिष्वा अपद्वेषागुंसिनुदतामरातीः तन्नो वायुस्तदुनिष्ट्या शृणोतु तन्नक्षत्रम् भूरिदा अस्तु मह्यम् तन्नो देवासो अनुजानन्तु कामम् यथा तरे मधुरितानि विश्वा दूरमस्मच्छत्रवो यन्तु भीताः तदिन्द्राग्ने कृणुताम् तद्विशाखे तन्नो देवा अनुमदन्तु यज्ञम् पश्चात्पुरस्तादभयन्नो अस्तु नक्षत्राणामधिपत्नी विशाखे श्रेष्ठाविन्द्राग्ने भुवनस्य गोपौ विशूचः शत्रूनपबाधमानौ अपक्षुधन्नुदतामरातिम् पूर्णा पश्चादुतपूर्णा पुरस्तात् मुन्मध्यतः पौर्णमासीजिगाय तस्यान्देवा अधिसंवसन्तः उत्तमेनाक इगमादयन्ताम् पृथ्वी सुवर्चायुपतिः सजोषाः पौर्णमास्युदगाच्छोभमाना आप्याययन्ति दुरितानि विश्वा वरुन्दुहां यजमानाय यज्ञम् रुध्यास्म हव्यैर्नमसोपसद्य मित्रम् देवम् मित्रधेयन्नो अस्तु अनुराधान् हविष वर्धयन्तः शतम् जीवेम शरदः सवीराः चित्तम् नक्षत्रमुदगात् पुरस्तात् अनुराधा स इति यद्वदन्ति तन्मित्र एति पथिभिर्देवयानैः हिरण्ययैर्विततैरन्तरिक्षे इन्द्रो ज्येष्ठामनुनक्षत्रमेति यस्मिन् वृत्रम् वृत्रतूर्ये ततार तस्मिन् वयममृतम् दुहानाः क्षुधन्तरे मधुरितिन्दुरिष्टिम् पुरन्दराय वृषभाय विष्णवे अषाढाय सहमानाय मीढुषे इन्द्राय ज्येष्ठा मधुमद्दुहाना वरुम् कृणोतु यजमानाय लोकम् मूलम् प्रजाम् वीरवतीम् विदेय परा आच्येतु निरृतिः परा च गोभिर्नक्षत्रम् पशुभिः समक्तम् अहर्भूयाद्यजमानाय मह्यम् अहर्नो अद्य सुभिते दधातु मूलम् नक्षत्रमिति यद्वदन्ति पराचीम् वाचा निरृतिम् नुदामि शिवम् प्रजायै शिवमस्तु मह्यम् या दिव्या आपः पयसा सम्बभूवुः या अन्तरिक्षभूतपार्थिवीर्याः या सामषाढा अनुयन्ति कामम् तान आपश्यग्रस्यो न भवन्तु याश्च कोप्या याश्च नाद्या समुद्रियाः याश्च वैशन्ति ऋतप्रासचीर्याः या सामषाढा मधुभक्षयन्ति तान आपश्यग्रस्यो न भवन्तु तन्नो विश्वे उपशृण्वन्तु देवाः तदषाढा अभिसंयन्तु यज्ञम् तन्नक्षत्रम् प्रथताम् पशुभ्यः कृषिर्वृष्टिर्यजमानाय कल्पताम् शुभ्राः कन्यायुवतयः सुपेशसः कर्मकृतः सुकृतो वीर्यावतीः विश्वान् देवान् हविषा वर्धयन्तीः अषाढाः काममुपयान्तु यज्ञम् यस्मिन् ब्रह्माभ्यजयत्सर्वमेतत् अमुञ्च लोकमितमूच सर्वम् तन्नो नक्षत्रमभिजिद्विजित्य श्रियम् दधाद्वहृणीयमानम् उभौ लोकौ ब्रह्मणा सञ्जितेमौ तन्नो नक्षत्रमभिजिद्विचष्टाम् तस्मिन् वयम् पृतनाः सञ्जयेम तन्नो देवासो अनुजानन्तु कामम् शृण्वन्ति श्रोणाममृतस्य गोपा पुण्यामस्य उपशृणोमि वाचम् महीम् देवीम् विष्णुपत्नीमजूर्याम् प्रतीचीमेनागुम् हविषः यजामः त्रेधा विष्णुरुरुगायो विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छ्रोणैति श्रव इच्छमाना पुण्यग्श्लोकम् यजमानाय कृण्वति अष्टौ देवा वसवः सोम्यासः चतस्रो देवी रजराश्रविष्ठाः ते यज्ञम् पान्तु रजसः परस्तात् संवत्सरेणमृतग्स्वस्ति यज्ञन्नः पान्तु वसवः पुरस्तात् दक्षिणतोऽभियन्तु श्रविष्ठाः पुण्यन्नक्षत्रमभिसंविशामा मानो अरातिरघशगुंसागन्ने क्षत्रस्य राजा वरुणोऽधिराजः नक्षत्राणागुंसदभिषग्वसिष्ठः तौ देवेभ्यः कृणुतो दीर्घमायुः शतकम् सहस्राभेषजा निधत्तः यज्ञम् नो राजा वरुण उपयातु तन्नो विश्वे अभिसंयन्तु देवाः तन्नो नक्षत्रगुम् सदभिषग्जुषाणम् दीर्घमायुः प्रदिरद्भेषजानि अजयेकपादुदगात् पुरस्तात् विश्वाभूतानि प्रतिमोदमानः तस्य देवाः प्रसवयन्ति सर्वे प्रोष्ठपदासो अमृतस्य गोपाः बिभ्राजमानः समिधानमुग्रः आन्तरिक्षमरुहदगन्त्याम् तगुम् सूर्यम् देवमजमेकपादम् प्रोष्ठपदासो अनुयन्ति सर्वे अहिर्बुद्धियः प्रथमानयेति श्रेष्ठो देवानामुतमानुषाणाम् तम् ब्राह्मणाः सोमपाः सोम्यासः प्रोष्ठपदासो अभिरक्षन्ति सर्वे चत्वार एकमभिकर्म देवाः प्रोष्ठपदास इति याणि वदन्ति ते बुद्धियम् परिषद्यग्निस्तुवन्तः अहिगुम् रक्षन्ति नमसोपसद्या पूषारेवत्यन्वेति पन्था पुष्टिपथि पशुपावाजमस्त्यौ इमानि हव्या प्रयता जुषाणा सुगैर्नो यानैरुपयातां यज्ञम् क्षुद्रान् पशून् रक्षतु रेपतीनः गावो नो अश्वागुम् अन्वेतु पूषा अन्नगुम् रक्षन्तौ बहुधा विरूपम् वाजगुंसनुतां यजमानाय यज्ञम् तदश्विना वश्वयुजोपयाताम् शुभङ्गमिष्ठौ सुयमेभिरश्वैः स्वन्नक्षत्रगुम् हविषा यजन्तौ मध्वा सम्पृक्तौ यजुषा समक्तौ यौ देवानाम्भिषजौ हव्यवाहौ विश्वस्य दूतावमृतस्य गोपौ तौ नक्षत्रम् जुजुषाणोपयाताम् नमोऽश्विभ्याम् कृणुमोऽश्वयुग्भ्याम् अपपाप्मानम् भरनेर्भरन्तु तद्यमो राजा भगवान् विचष्टाम् लोकस्य राजा महतो महान् हि सुगन्नः पन्थामभयम् कृणोतु यस्मिन्नक्षत्रे यमयेति राजा यस्मिन्नेनमभ्यषिञ्चन्त देवाः तदस्य चित्रकम् हविषायजाम अपपाप्मानम् भरणेर्भरन्तु ॐ